चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान् भवमर्गणानाम् समाकुलाय निचखानदूरम् बाणान्ध्वजिन्य हृदयेश्वरातिः चित्रीयमाणानिति अरातिः अर्जुनः अतिलाघवेन अतिशीघ्रत्वात् चित्रीयमाणान् चित्रम् आश्चर्यम् कुर्वाणान् नमो वरिवश्चित्रङ्गः क्यच् भवमार्गणानाम् प्रमाथिनः खण्डयतः तान् बाणान् समाकुलायाः संक्षुभितायाः ध्वजिन्याः सेनायाः हृदयेषु दूरम् गाढम् निचखान निखातवान् तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन हन्तापुराम् भूरि पृषत्कवर्षम् निरासनैदाघ इवाम्बुमेघः तस्येति तस्य अर्जुनस्य पराक्रमे अतियत्नाद्धेतोः अन्योन्यस्य विशेषणेन अतिशयकरणेन अतिरिच्यमाने उत्कृष्यमाणे सति पुराम् हन्ता त्रिपुरविजयी हरः भूरि प्रभूतम् पृषत्कवर्षम् बाणवर्षम् पृषत्कबाणविशिखाः इत्यमरः निदाघे भवः नैदाघः मेघः अम्बुवाहः अम्बुजलमिव निरास मुमोच अस्य तेः लिट् निदाघग्रहणम् वर्षणस्य अतितीव्रत्वद्योतनार्थम् अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताश्चिवेन सुहृत्प्रयुक्ता इव नर्मवादाः शरामुनेः प्रीतिकरा बभूवुः अनामृशन्त इति प्रियैषिणा प्रियचिकीर्षुणा शिवेन अनुप्रहिताः प्रयुक्ताः अत एव क्वचिदेव मर्म अनामृशन्तः अस्पृशन्तः शराः सुहृन्मित्रम् सोऽपि प्रियैषी तेन प्रयुक्ताः उच्चारिताः नर्मवादाः प्रियवादाः इव मुनेः अर्जुनस्य प्रीतिकराः प्रीतिजनकाः बभूवुः अस्त्रैः समानामतिरेकिणीम् वा पश्यन्निषूणामपि तस्य शक्तिम् विषादवक्तव्यबलप्रमाथी स्वमाललम्बे बलमिन्दुमौलिः अस्त्रैरिति अस्त्रैः स्वायुधैः समानाम् तुल्याम् अतिरेकिणीम् ततः अधिकाम् वा तस्य मुनेः इषूणामपि शक्तिम् पश्यन् विषादेन उत्साहभङ्गेन वक्तव्यानि निर्वाच्यानि बलानि सैन्यानि यस्य सः प्रमाथी शत्रुमर्दनः इन्दुमौलिः महादेवः स्वम् बलम् आत्मीयम् महिमानम् आललम्बे स्वसामर्थ्यम् अवलम्बितवान् ततस्तपोवीर्यसमुद्धतस्य पारम् जियासोः समरार्णवस्य महेषु जालान्यखिलानि जिष्णोः अर्कः पयांसीव समाचचाम तत इति ततः महिमप्रादुर्भावानन्तरम् देवः तपोवीर्याभ्याम् समुद्धतस्य प्रगल्भस्य समर एव अर्णवः त तस्य पारम् अन्तम् इयासोः जिगमिषोः जिष्णोः अर्जुनस्य अखिलानि महेशुजालानि समग्रबाणसमूहान् अर्कः सूर्यः पयांसीव जलानीव समाचचाम सञ्जहार रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपपात पाणिः अन्यद्विपातीतजले सतर्षम् मतङ्गजस्येव नगास्मरन्ध्रे रिक्त इति अथ बाणान्तर्थानानन्तरम् अर्जुनस्य पाणिः करः रिक्ते बाणशून्ये निषङ्गवक्त्रे तूणीरमुखे अन्यद्विपेन गजान्तरेण आपीतजले पीततोये नगस्य अचलस्य अश्मरन्ध्रे शिलागर्ते प्रदरे इत्यर्थः सतर्षम् सतृष्णम् यथा स्यात् तथा मतङ्गजस्य पाणिः लक्षणया कर इव सविस्रम्भम् सन्त्येव बाणाः इति सविश्वासम् निपपात च्युते स तस्मिन्निषुधौ शरार्थात् ध्वस्तार्थसारे सहसेव बन्धौ तत्कालमोघप्रणयः प्रपेदे निर्वाच्यता काम इवाभिमुख्यम् च्युत इति शराः एव अर्थः धनम् तस्मात् च्युते भ्रष्टे तस्मिन् इषुधौ निषङ्गे सहसा झटिति ध्वस्तार्थसारे अकाण्डे नष्टधनसारे बन्धाविव तत्काले मोघः वितथः प्रणयः प्रीतिः यस्य सः तत्कालकृतव्यर्थप्रार्थनः पूर्वम् कृतार्थ एवेति भावः सः पाणिः निर्वाच्यताम् कृतज्ञत्वात् अपवादराहित्यम् कामयते इति निर्वाच्यताकामः शीलिकामिभक्ष्याचरिभ्यो णः स इवेति उत्प्रेक्ष आभिमुख्यम् प्रपेदे यथा कश्चित् कृतज्ञः तत्काले अकृतोपकारमपि बन्धुम् पूर्वोपकारस्मरणात् पुनः पुनः अनुबध्नाति तद्वदित्यर्थः
आघट्टयामास गता गताभ्याम् सावेगमग्राङ्गुलिरस्य तूणौ विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गाञ्जिगीषोः आघट्टयामासीति अस्य मुनेः अग्रञ्च असौ अङ्गुलिश्चेति अग्राङ्गुलिः हस्ताग्र अग्रहस्तयोः गुणगुणिनोः भेदाभेदात् इति वामनः विधेयमार्गे कर्तव्यान्वेषणे उत्सुकस्य प्रवृत्तस्य गाम् भुवम् जिगीषोः नायकस्य मतिः बुद्धिः नयः षाड्गुण्यम् प्रयोगः उपायः तौ नयप्रयोगाविव तूणौ निषङ्गौ सावेगम् ससम्भ्रमम् इष्टानिष्टागमाज्ञाने आवेगश्चित्तसम्भ्रमः इति शाश्वतः गतागताभ्याम् यातायाताभ्याम् आवापोद्वापाभ्याम् च आघट्टयामास अन्यत्र तु वितर्कयामास शरग्रहणाय पुनः पुनः तूणयोः पाणिम् व्यापारयामास इत्यर्थः
बभारशून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी।
बभारेति शून्याकृतिः इष्टनाशात् निस्तेजस्करूपः अर्जुनः तौ वीतमहेषु जालौ वीतानि गतानि महेषु जालानि ययोस्तौ महेषुधी महानिषङ्गौ विजिह्मः शून्यः लोकः युगान्ते संशुष्कजलौ शुषः कः इति निष्ठातकारस्य ककारः पूर्वापरौ अम्बुराशी समुद्राविव बभार।
तेनानिमित्तेन तथा न पार्थः तयोर्यथा रिक्ततयानुतेपे स्वामापदम् प्रोच्य विपत्तिमग्नम् शोचन्ति सन्तो ह्युपकारिपक्षम्।
तेनेति पार्थः तयोः तूणयोः रिक्ततया हेतुना यथा अनुतेपे शुशोच तथा तेन अनिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच तथा हि सन्तः स्वाम् आपदम् प्रोज्य विसृज्य विपत्तिमग्नम् उपकारिणाम् पक्षम् वर्गम् शोचन्ति स्वव्यसनापेक्षया परकीयव्यसनमेव सताम् अनुतापकमित्यर्थः।
प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषमियाय हस्तः परं मुखत्वेऽपि कृतोपकारात् तूणीमुखान्मित्रकुलादिवार्यः।
प्रतीति प्रतिक्रियायै विधुरः प्रतिकर्तुम् असमर्थः तुमर्थाच्च भाववचनात् इति चतुर्थी। अर्जुनस्य सः हस्तः पाणिः पराङ्मुखत्वेऽपि तत्कालवैमुख्येऽपि कृतोपकारात् तस्मात् तूणीमुखात् मित्रकुलात् आर्यः साधुः कृतज्ञः इव आर्यः साधुकुलीनयोः इति विश्वः कृच्छ्रेण महाकष्टेन विश्लेषम् इयाय गौरादित्वात् तूणशब्दात् ङीष्।
पश्चात्क्रिया तूणयुगस्य भर्तुः जज्ञे तदानीम् उपकारिणी वा सम्भावनायामधरीकृतायाम् पत्युः पुरः साहसमासितव्यम्।
पश्चादिति तदानीम् भर्तुः स्वामिनः कर्तरि षष्ठी। पश्चात्क्रिया पृष्ठतः करणम् तूणयुगस्य उपकारिणीव उपकारिकेव जज्ञे जाता तथा हि सम्भावनायाम् स्वयोग्यतायाम् अधरीकृतायाम् अफलीकृतायाम् पत्युः स्वामिनः पुरः अग्रे आसितव्यम् आसितम् स्थितिः। बहुलग्रहणात् भावे तव्यप्रत्ययः साहसम् न क्षमम् न योग्यम्। भर्त्रा सम्भावितस्य अवसरे अनुपकर्तुः अनुजीविनः तत्साम्मुख्यम् अनुचितमित्यर्थः।
तम् शम्भुराक्षिप्तमहेषु जालम् लोहैः शरैर्मर्मसु निस्तुतोद हृतोत्तरम् तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम्।
तमिति शम्भुः आक्षिप्तानि आहतानि महेषु जालानि यस्य तम् मुनिम् तत्त्वविचारमध्ये वादमध्ये हृतोत्तरम् निरुत्तरीकृतम् विपक्षम् प्रतिवादिनम् वक्ता वादी गुरुभिः दोषैः निग्रहस्थानैः इव लोहैः लोहमयैः शरैः मर्मसु निस्तुतोद व्यथयामास
जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितः हैमलेखम् चण्डः पतङ्गान्मरुदेकनीलम् तडित्वतः खण्डमिवाम्बुदस्य
जहारेति किञ्च अस्मात् मुनेः अचिरेण शीघ्रम् ज्वलद्भिः मणिभिः द्योतिताः हैम्यः सौवर्ण्यः लेखाः यस्य तत्तथोक्तम् वर्ण कवचम् चण्डः मरुत् पवनः पतङ्गात् सूर्यात् एकनीलम् केवलम् कृष्णवर्णम् एके मुख्यान्यकेवलाः इत्यमरः तडित्वतः तडिद्युक्तस्य अम्बुदस्य खण्डमिव जहार तदा भगवन्मायया मुक्तकञ्चुकः मुनिः मेघनिर्मुक्तः सूर्यः इव दिदीपे इति भावः
विकोशनिर्धौ ततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् प्रतिद्विपाबद्धरुषः समक्षम् नागस्य चाक्षिप्तमुखच्छदस्य
विकोशेति सः अर्जुनः तनुम् त्रायते इति तनुत्रम् वर्म आतोऽनुपसर्गे कः इति कप्रत्ययः तेन विना विकोशः कोशात् उद्धृतः निर्धौततनुः शाणोल्लीढमूर्तिः ततः विशेषणसमासः तस्य विकोशनिर्धौततनोः महासेः महाखड्गस्य तथा त्वचि विच्युतायाम् सत्याम् फणावतश्च मुक्तकञ्चुकस्य अहेश्च प्रतिद्विपे प्रतिगजे आबद्धरुषः बद्धकोपस्य समक्षम् प्रतिगजस्य अग्रे आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च